एवं रामः लक्ष्मणः वानराः च रावण आदीन् असुरान् अजयिषुः। तस्य च रामस्य आज्ञया विभीषणः लंकायाः नृपतिः अभूत्। सीतां तु राघवः अवोचत्, भार्ये त्वं अन्यपुरुषस्य गृहे अस्थाः, ततः त्वया सकल्मषया सत्या सह पुनर्जीवितुं न शक्नोमि इति। एवं उक्त्वा सीता प्रति अवादीत्, अहं न तस्य असुरस्य स्पर्शम् अगमम्, श्रुतिः च अस्मि इति। तद् उक्त्वा सैनिकानाम् अन्तिके सा अनले अवीक्षत्। अग्निः देवः तु ताम् न दहन् सर्वान् तत् शुद्धिम् अबूबुधत्। ततः रामः महातुष्टिम् अगमत्।